इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम्। प्रवाचकः पुरुषोत्तम शर्मा। आदौ मुख्य वार्ताः। लोकसभा निर्वाचनस्य सप्तम चरणाय प्रचाराभियानं सजवं विधीयते। रेमल चक्रवातस्य प्रभावः अद्य रात्रौ बांग्लादेशस्य खेपुपुरायाम् अथ पश्चिमबंगालस्य सागरतटे दृष्टिमागमिष्यति। गुजरातस्य राजकोटे दुरापादितस्य अग्निकाण्डस्य अन्वीक्षणाय विशेषान्वीक्षणदलं संघटितम्। गुजरातोच्चन्यायालये च भविष्यति वादश्रवणम्। राजधान्यां नवदिल्ल्यां विवेक विहार क्षेत्रे एकस्मिन् बाल चिकित्सालये दुरापादितायाम् अग्निदुर्घटनायां षट् नवजात शिशवः मृत्युमुपगताः। घटनायाम् उपराष्ट्रपतिः राष्ट्रपतिः प्रधानमन्त्री च शोकं प्रकटितवन्तः। अपि च आईपीएल क्रिकेट स्पर्धा मालिकायां निर्णायके द्वन्द्वे अद्य कोलकाता नाइट राइडर्स दलं सनराइजर्स हैदराबाद दलेन सह क्रीडिष्यति। अथ वार्ताः विस्तरेण। लोकसभा निर्वाचनस्य सप्तम चरणाय प्रचाराभियानं सजवं विधीयते। भाजपादलस्य वरिष्ठो नेता प्रधानमन्त्री च नरेन्द्रमोदी अद्य उत्तरप्रदेशस्य मिर्जापुरे एकस्यां जनसभायाम् अवोचत् यत् देशस्य जनैः स्पष्टनीतिकारणेन तृतीयवारं भाजपादलस्य नेतृत्वे राष्ट्रिय जनतान्त्रिक संयुतेः प्रशासन विरचनस्य निर्णयः स्वीकृतः। प्रधानमन्त्रिणा उक्तं यत् इण्डी संयुतेः विपक्षिणः प्रधानमन्त्रिपदम् उपहासास्पदं विधातुं प्रयतन्ते। अपि च भाजपाध्यक्षः जेपी नड्डा जहानाबाद क्षेत्रे जनसभायाम् अवोचत् यत् राष्ट्रिय जनतान्त्रिक संयुतिः लोकसभा निर्वाचने प्रबल बहुमतं प्राप्स्यति। अपरत्र कांग्रेस नेता राहुल गांधी हिमाचलप्रदेशस्य सिरमौर जनपदे एकां जनसभां सम्बोधयन् अवोचत् यत् प्रथमोऽयम् अवसरः यदा कांग्रेस दलं संविधान रक्षायै निर्वाचने प्रयत्नं विदधाति। राजधान्यां नवदिल्ल्यां विवेक विहार क्षेत्रे एकस्मिन् बाल चिकित्सालये दुरापादिते अग्निकाण्डे षड् नवजात शिशवः मृत्युमुपगताः, नेके च व्रणिताः। अस्मिन् अग्निकाण्डे द्वादश शिशवः सुरक्षिताः। अग्निकाण्डस्य कारणानि अधुनापि न ज्ञातानि। घटनायाः सूचना गतरात्रौ सार्ध एकादशवादने अग्निशमन विभागेन दूरभाषमाध्यमेन प्राप्ता। राष्ट्रपतिः उपराष्ट्रपतिः प्रधानमन्त्री च घटनाम् आलक्ष्य गभीरशोकं प्रकटितवन्तः। अपरत्र गुजरातस्य राजकोटे दुरापादिते अग्निकाण्डे मृतकानां संख्या समेध्य सप्तविंशतिः संजाता। घटनायाः अन्वीक्षणाय विशेषान्वीक्षणदलं संघटितम्। अस्मिन् विषये सोमवासरे गुजरातोच्चन्यायालये वादश्रवणं भविष्यति। अत्रान्तरे प्रधानमन्त्री नरेन्द्रमोदी अद्य दिल्ली गुजरातयोः अग्निघटनयोः मृतकानां परिजनेभ्यः प्रत्येकं परिवाराय साहाय्यम् उद्घोषयत्। प्रधानमन्त्री कार्यालयेन एकस्मिन् सामाजिक संचार पटले प्रोदीरितं यत् प्रधानमन्त्री राष्ट्रिय साहाय्य कोषात् द्विलक्षरूप्यकाणाम् अनुग्रह राशि मृतकानां परिजनेभ्यः प्रदास्यति। सममेव व्रणितेभ्यः 50,000 रूप्यकाणि प्रदास्यन्ते। पश्चिमबंगाल प्रशासनेन रेमल चक्रवातं सम्मुखीकर्तुं सर्वविधोपायाः विहिताः सन्ति। रेमल चक्रवातः सम्प्रति प्रबल चक्रवातरूपेण परिवर्तितः। अस्य प्रभावः अद्य रात्रौ बांग्लादेशस्य खेपुपुरायाम् अथ पश्चिमबंगालस्य सागरतटे दृष्टिम् आगमिष्यति। अरब भाषायाः रेमल इति शब्दस्य अर्थः पालुका वर्तते। अयं हि प्रथमः चक्रवातः अस्ति यत् प्राविड्कालात् पूर्वं बंगालखात्यम् आगमिष्यति। भारतीय ऋतुविज्ञान विभागेन पश्चिमबंगालस्य तटवर्ति जनपदेषु ओडिशायाम् उत्तरभागे अद्य श्वः च प्रबलवृष्टेः सम्भावना प्रकटितास्ति। सममेव असमे मेघालये च वृष्ट्या सह मणिपुरे नागालैण्डे अरुणाचलप्रदेशे त्रिपुरायां च प्रबलवृष्टेः अनुमानः व्यक्तीकृतः। अत्रान्तरे कोलकाता विमानपत्तन प्राधिकरणेन अद्य मध्याह्नात् एकविंशतिः होरावधये कोलकाता विमान पत्तने विमान संचालनम् स्थगितम्। संस्कृत वार्तायाः संस्करणम् इदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव अयम् कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ न्यूज ऑन एआईआर चलदूरभाषीय तन्त्रांशे अपि उपलब्धो भविष्यति। प्रशासनेन दूरभाषमाध्यमेन अन्ताराष्ट्रियम् छद्म व्यवहारम् निवारयितुम् दूरसंचार सेवा प्रदातृभ्यः निर्देशाः प्रदत्ताः। संचार मन्त्रालयेन प्रोक्तम् यत् छलिनः भारतीय नागरिकान् वञ्चितुम् अन्ताराष्ट्रिय दूरभाष संख्यानाम् प्रयोगम् कुर्वन्ति। अनेन माध्यमेन ते अन्तर्जालीयापराध घटनाः वित्तीयापराधाञ्च कुर्वन्ति। एतासाम् घटनानाम् निवारणाय दूरसंचार विभागेन दूरभाषोपभोक्तृभ्यः एका प्रणाली विनिर्मितास्ति। दूरभाष उपभोक्तृणाम् दूरभाषेषु एतादृशम् अन्ताराष्ट्रिय छद्म दूरसञ्चारम् निवारयितुम् दूरसञ्चार सेवा समवायेभ्यः निर्देशाः प्रदत्ताः। भारतीय हज यात्रिणः अद्य हज यात्रायै जेद्दाः विमानपत्तनम् प्राप्ता। अयम् प्रथमः अवसरः यदा इमे हज यात्रिणः बसयानस्य स्थाने रेलयानेन मक्का क्षेत्रम् प्रस्थिताः। जद्दाह स्थले भारतस्य महावाणिज्य दूतावासेन सऊदी अरबस्य सम्बद्ध अधिकारिभिः सह भारतीय हज यात्रिभ्यः अयम् सौविध्यम् सुलभायितम्। अनुमानम् अस्ति यत् अस्मिन् वर्षे 32,000 भारतीय हज यात्रिणः विशेष सेवायाः उपयोगम् करिष्यन्ति। प्रप्रथमम् भारतीय हज यात्रिभ्यः भारतीय दूतावासस्य अधिकारिणः सऊदी अरबस्य च सम्बद्धाधिकारिणः मक्का क्षेत्रम् प्राप्ताः। चलचित्र निर्देशिका पायल कपाडिया ऐतिह्यम् विरच्य प्रथमा भारतीया संवृत्ता, यया कान्स् चलचित्र महोत्सवे ग्रैंड पिक्स इत्याख्यः पुरस्कारः विजितः। गुरुवासरे रात्रौ प्रदर्शितेन चलचित्रेण द्वितीये क्रमे अयम् पुरस्कारः प्राप्तः। अवधेयम् यत् 30 वर्षेषु अयम् प्रथमः अवसरः यदा कस्याः अपि भारतीय महिला चलचित्र निर्देशिकायाः चलचित्रम् अस्मिन् महोत्सवे प्रदर्शितम्। एतत् चलचित्रम् प्रभा नाम्न्याः परिचारिकायाः जीवनसम्बद्धम् वर्तते। अस्मिन् एव चलचित्र महोत्सवे अभिनेत्री अनसूया सेनगुप्ता उत्तम अभिनयाय पुरस्कार विजेत्री प्रथमा भारतीया अभिनेत्री संवृत्ता। तया अयम् पुरस्कारः द सेम्लेस् इत्यस्मिन् चलचित्रे अनसर्टेन रिगार्ड श्रेण्याम् प्राप्तः। भारतस्य सिमरन शर्मा जापानस्य कोबे नगरे अनुवर्तमानायाम् विश्व पैरा एथलेटिक चैम्पियनशिप स्पर्धमालायाम् स्वर्णपदकम् विजितवती। सिमरनेन ह्यः महिलानाम् 200 मीटर T12 इति स्पर्धायाम् 2:44.95 पलसमये स्वीय सर्वश्रेष्ठ प्रदर्शनेन स्वर्णपदकम् विजितम्। भारतेन विश्व पैरा एथलेटिक्स चैम्पियनशिप स्पर्धामयाम् 6 स्वर्णपदकानि समेत्य 17 पदकानि विजितानि। अंकतालिकायाम् भारतम् 6 क्रमे विद्यते। आईपीएल क्रिकेट स्पर्धामालिकायाम् निर्णायके द्वन्द्वे अद्य कोलकाता नाइट राइडर्स दलम् सनराइजर्स हैदराबाद दलेन सह क्रीडिष्यति। एषा निर्णायका स्पर्धा चेन्नई नगरस्थे एमए चिन्नास्वामी क्रीडांगणे भविष्यति। भारतीय समयानुसारेण सायं 7:30 स्पर्धेयम् आरप्स्यते। अन्ते मुख्यवार्ताः पुनरेकवारम्। लोकसभा निर्वाचनस्य 7वें चरणाय प्रचाराभियानम् सजवम् विधीयते। रेमल चक्रवातस्य प्रभावः अद्य रात्रौ बंगलादेशस्य खेपुपुरायाम् अथ पश्चिमबंगालस्य सागरतटे दृष्टिम् आगमिष्यति। गुजरातस्य राजकोटे दुरापादितस्य अग्निकाण्डस्य अन्वीक्षणाय विशेषान्वीक्षणदलम् संघटितम्। गुजरातोच्चन्यायालये च भविष्यति वादश्रवणम्। राजधान्याम् नवदिल्ल्याम् विवेक विहार क्षेत्रे एकस्मिन् बालचिकित्सालये दुरापादितायाम् अग्निदुर्घटनायाम् 6 शिशवः मृत्युमुपगताः।